अथ श्रीराधास्तवनम् गणेशकृतम् श्रीगणेश उवाच तव पूजा जगन्मातर्लोकशिक्षा करी शुभे ब्रह्मस्वरूपा भवती कृष्णवक्षस्थलस्थिता यत्पादपद्ममतुलं ध्यायन्ते ते सुदुर्लभम् सुरा ब्रह्मेश शेषाद्या मुनीन्द्रासनकादयः जीवन्मुक्ताश्च भक्ताश्च सिद्धीन्द्रात् कपिलादयः तस्य प्राणाधिदेवित्वं प्रिया प्राणाधिका परा वामाङ्गनिर्मिता राधा दक्षिणाङ्गश्च माधवः महालक्ष्मीर्जगन्माता तव वामाङ्गनिर्मिता वसो सर्वनिवासस्य प्रसूस्त्वं परमेश्वरी वेदानाई जगतामेव मूलप्रकृतिरीश्वरी सर्वाः प्राकृतिका मातसृष्ट्याई च त्वद्विभूतयः विश्वानि कार्यरूपाणि त्वयि च कारणरूपिणी प्रलये ब्रह्मणः पाते तन्निमेषो हरेरपि आदौ राधां समुच्चार्य पश्चात् कृष्णं परात्परम् स एव पंडितो योगी गोलोकं याति लीलया व्यतिक्रमे महापापी ब्रह्महत्यां लभे ध्रुवं जगतां भवती माता परमात्मा पिता हरिः पितुरेव गुरुर्माता पूज्या वंद्या परात्पराः भजते देवमन्यं वा कृष्णं वा सर्वकारणं पुण्यक्षेत्रे महामूढो यदि निन्दति राधिकाम् वंशः निर्भवेतस्य दुःखशोकमिहैव च पच्यते निरते घोरे यावच्चन्द्रदिवाकरौ गुरुश्च ज्ञानोद्गिरणाज्ञानं स्यान्मन्त्रतन्त्रयोः स च मन्त्रश्च तत्तन्त्रं भक्तिः स्याद्युवयोर्यतः निषेव्य मन्त्रं देवानाय जीवा जन्मनि जन्मनि भक्ता भवन्ति दुर्गायाः पादपद्मे सुदुर्लभे निषेव्य मन्त्रं शम्भोश्च जगतां कारणस्य च तदा प्राप्नोति युवयोः पादपद्मे पद्मं सुदुर्लभम् युवयो पादपद्मै च दुर्लभं प्राप्य पुण्यवान् क्षणार्धं षोडशांशै च नहि मुञ्चति दैवतः भक्त्या च युवयोर्मन्त्रं गृहीत्वा वैष्णवादपि स्तवं वा कवचं वापि कर्ममूलनिकृन्तनम् यो जपेत् परया भक्त्या पुण्यक्षेत्रे च भारते पुरुषाणां सहस्रै च स्वात्मना सार्धमुद्धरेत् गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः कवचं धारयेद्यो हि विष्णुतुल्यो भवेद्ध्रुवम् इति श्रीब्रह्मवैवर्ते गणेशकृतं श्रीराधास्तवनं सम्पूर्णम् ॐ हरये नमः हरये नमः हरये